शरज्योत्सनाशुद्धां शशियुतजटाजूटमकुटां वरत्रासत्राणस्फटिकघुटिका पुस्तककरां सकृन्नत्वानत्वा कथमिव सतां सन्निदधते मधुक्षीरद्राक्षामधुरिमा धुरीणाः फणितयः मधुक्षीरद्राक्षामधुरिमा धुरीणाः फणितयः विश्वोद्भवस्थितिलयादिषु हेतुमेकं गौरीपतिं विदिततत्त्वमनन्तकीर्तिं मायाश्रयं विगतमायमचिन्त्यरूपं बोधस्वरूपममलं हि शिवं नमामि बोधस्वरूपममलं हि शिवं नमामि ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गं जन्मजदुःखविनाशकलिङ्गं तत्प्रणमामि सदाशिवलिङ्गं देवमुनिप्रवरार्चितलिङ्गं कामदहनकरुणाकरलिङ्गं रावणदर्पविनाशकलिङ्गं तत्प्रणमामि सदाशिवलिङ्गं सर्वसुगन्धिसुलेपितलिङ्गं बुद्धिविवर्धनकारणलिङ्गं सिद्धसुरासुरवन्दितलिङ्गं तत्प्रणमामि कनकमहामणिभूषितलिङ्गं फणिपतिवेष्टितशोभितलिङ्गं दक्षसुयज्ञविनाशनलिङ्गं तत्प्रणमा सदाशिवलिङ्गं कुङ्कुमचन्दनलेपितलिङ्गं पङ्कजहारसुशोभितलिङ्गं सञ्चितपापविनाशकलिङ्गं तत्प्रणमा सदाशिवलिङ्गं देवगणार्चितसेवितलिङ्गं भावैर् एव च लिङ्गं दिनकरकोटिप्रभाकरलिङ्गं तत्प्रणमामि सदाशिवलिङ्गं अष्टदलोपरिवेष्टितलिङ्गं सर्वसमुद्भवकारणलिङ्गम् अष्टदरिद्रविनाशनलिङ्गम् तत्प्रणमा सदाशिवलिङ्गम् सुरगुरुसुरवरपूजितलिङ्गम् सुरवरपुष्पसदार्चितलिङ्गम् परमपदम् परमात्मकलिङ्गम् तत्प्रणमा सदाशिवलिङ्गं तत्प्रणमामि सदाशिवलिङ्गं तत्प्रणमामि सदाशिवलिङ्गं वन्दे शिवन्तं प्रकृतेरनादिं प्रशान्तमेकं पुरुषोत्तमं हि स्वमायया कृत्स्नमिदं हि सृष्ट्वा नभो वदन्तर्बहिरास्थितो यः वन्दे शिवन्तं प्रकृतेरनादिं प्रशान्तमेकं पुरुषोत्तमं हि स्वमायया कृत्स्नमिदं हि सृष्ट्वा नभो वदन्तर्बहिरास्थितो यः वन्दे शिवन्तं प्रकृतेरनादिं प्रशान्तमेकं पुरुषोत्तमं हि स्वमायया कृत्स्नमिदं हि सृष्ट्वा नभो वदन्तर्बहिरास्थितो यः गौरीशङ्कर भग जगदम्ब विश्वपालिनी माता की शारदा माता की जगद्गुरु शंकराचार्य भगवान की दक्षिणाम्नाय पीठाधीश्वर श्री भारती तीर्थ महास्वामी की तत्करकमल संजात श्री विधुशेखर भारती स्वामी की नमः पार्वती पते हर हर महादेव हर विधेता त्वया शैव वर प्राज्ञाद्भुता कथा वर्णिता करुणां कृत्वा प्रीतिर्मे वर्धितादिकम् വിധേഗതേ സ്വകന്ധാമ മയി വൈ ദിവ്യദർശനേ തതഃ കിമഭവത്താതാ കൃപയാ തദ്വദാധുനാ.